बालमोदिनी कथा धनवताम् अपेक्षया अपि संपन्ना। एकदा श्रावस्तीनगरे भयंकरं दुर्भिक्षं संजातं आसीत्। अनेके जनाः बुभुक्षया मृताः। सर्वाधिकचिन्ताजनकस्थितिः तासां मातॄणाम् आसीत्, यासां लघुशिशवः आसन्। यतः तासां गृहस्य पुरुषाः सर्वे मृताः आसन्। एतत् सोढुम् अशक्तः भगवान् बुद्धः सर्वेषां जनानां गोष्ठीम् आयोजितवान्। गोष्ठ्यां सः जनान् उद्दिश्य उक्तवान्, एतासाम् असहायानां मातॄणां शिशूनां च रक्षणार्थं किमपि उपायं भवन्तः सूचयन्तु इति। गोष्ठ्यां बहवः धनिकाः अपि उपस्थिताः आसन्। ते धनिकाः उक्तवन्तः, अस्माकं सङ्ग्रहे धान्यं तु अस्ति एव, किन्तु तत् अस्माकं परिवारस्य एकवर्षस्य भोजनाय पर्याप्तं भवेत्, परं वर्षाभ्यन्तरे वृष्टिः भविष्यति इति विश्वासः तु नास्ति। एवं सति वयं कस्मैचित् वा धान्यं दातुं कथं शक्नुयाम इति ते सर्वे शिरः अवनमय्य उपविष्टवन्तः। तदा द्वादशवर्षीया सुचेता नामिका काचित् बालिका उत्थाय, देव भवान् माम् आज्ञापयतु, अहम् एतत् कार्यं करिष्यामि इति उक्तवती। तदा बुद्धः पृष्टवान्, कथं करिष्यति भवती इति। सुचेता उक्तवती, मानवः यावान् निष्ठुरः वा भवतु, तस्य हृदयस्य कोणे कुत्रचित् करुणाभावः भवत्येव। अहं तं करुणाभावं जागरयामि। यस्य गृहे अग्निः ज्वलति तस्य गृहं गत्वा मरणासन्नानां शिशूनां कृते अर्धरोटिकां याचयामि इति। बुद्धः स्नेहपूर्वकं तस्याः शिरसि हस्तं स्थापयित्वा, भवती जनानां दृष्ट्या धनवताम् अपेक्षया अपि अधिकं सम्पन्ना अस्ति, एतस्मिन् कार्ये भवती सफलतां प्राप्नोतु इति आशीर्वादं कृतवान्। सुचेतायाः व्रतम् एकवर्षं यावत् निरन्तरं प्राचलत्। सा एतस्मिन् अवधौ सामान्यतया सहस्राधिकजनानां कृते भोजनस्य व्यवस्थां कृतवती।